ओम नमो भगवते वासुदेवाय। अथैकोनविंशोऽध्यायः। श्रीशुक उवाच, किं पुरुषे वर्षे भगवन्तमादिपुरुषं लक्ष्मणाग्रजं सीताभिरामं रामं तच्चरणसन्निकर्षाभिरतः परमभागवतो हनुमान् सह किं पुरुषैरविरतभक्तिरुपास्ते आर्षिषेणेन सह गन्धर्वैरनुगीयमानां परमकल्याणीं भर्तृभगवत्कथां समुपशृणोति स्वयं चेदं गायति। ओम नमो भगवते उत्तमश्लोकाय, नम आर्यलक्षणशीलव्रताय, नम उपशिक्षितात्मन उपासितलोकाय, नमः साधुवादनिकषणाय, नमो ब्रह्मण्यदेवाय, महापुरुषाय, महाराजाय नम इति। यत्तद्विशुद्धानुभवमात्रमेकं स्वतेजसा ध्वस्तगुणव्यवस्थं प्रत्यक्प्रशान्तं सुधियोपलम्भनं यनामरूपं निरहं प्रपद्ये। मर्त्यावतारस्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं विभोः। कुतोऽन्यथा स्याद्रमतस्वात्मनः सीताकृतानि व्यसनानीश्वरस्य। न वै सात्मात्मवतां सुहृत्तमः सक्तस्त्रिलोक्यां भगवान् वासुदेवः। न स्त्रीकृतं कश्मलमश्नुवीत न लक्ष्मणं चापि विहातुमर्हति। न जन्म नूनं महतो न सौभगं न वाङ् न बुद्धिर्न कृतिस्तोषहेतुः। तैर्यद्विसृष्टानपि नो वनौकसश्चकारसख्ये बत लक्ष्मणाग्रजः। सुरोऽसुरो वाप्यथ वानरो नरः सर्वात्मना यः सुकृतज्ञमुत्तमम्। भजेत रामम् अनुजाकृतिम् हरिम् यौत्तरान्नयत् कोसलान् दिवमिति। भारतेऽपि वर्षे भगवान् नरनारायणाख्य आकल्पान्तमुपचित धर्मज्ञान वैराग्यैश्वर्योपशमो परमात्मोपलम्भनमनुग्रहायात्मवतामनुकम्पया तपोव्यक्तगतिश्चरति। तम् भगवान्नारदो वर्णाश्रमवतीभिर्भारतीभिः प्रजाभिर्भगवत्प्रोक्ताभ्याम् साङ्ख्ययोगाभ्याम् भगवदनुभावोपवर्णनम् सावर्णेरुपदेक्ष्यमाणः परमभक्तिभावेनोपसरति इदम् चाभिगृणाति। ओम् नमो भगवते उपशमशीलायोपरतानात्म्याय, नमो किञ्चन वित्ताय, ऋषिऋषभाय, नरनारायणाय, परमहंस परमगुरवे, आत्मा रामाधिपतये नमो नम इति गायति चेदम्। कर्तास्य सर्गादिषु यो न बध्यते न हन्यते देहगतोऽपि दैहिकैः। द्रष्टुर्न दृग्यस्य गुणैर्विदूष्यते तस्मै नमो सक्तविविक्तसाक्षिणे। इदं हि योगेश्वरयोगनैपुणं हिरण्यगर्भो भगवान् जगादयत्। यदन्तकाले त्वयि निर्गुणे मनो भक्त्यदधीतोज्झितदुष्कलेवरः। यथैकामुष्मिककामलं पटः सुतेषु दारेषु धनेषु चिन्तयन् संकेत विद्वान् कुकलेवरात्ययात् यस्तस्य यत्नः श्रम एव केवलम्। तन्न प्रभो त्वम् कुकलेवरार्पिताम् त्वन्माययाहम् ममतामधोक्षज। भिन्द्यामयेनासु वयम् सुदुर्भिदाम् विधेहि योगम् त्वयि न स्वभावमिति। भारतेऽप्यस्मिन् वर्षे सरिच्छैलाः सन्ति बहवो मलयो मङ्गलप्रस्थो मैनाकस्त्रिकूट ऋषभः कूटकः कोल्लकः सह्यो देवगिरिर्ष्यमूकः श्रीशैलो वैंकटो महेन्द्रो वारिधारो विन्ध्यः सुक्तिमान् ऋक्षगिरिः पारियात्रो द्रोणश्चित्रकूटो गोवर्धनो रैवतकः ककुभो नीलो गोकामुख इन्द्रकीलः कामगिरिरिति चाम्ने च शतसहस्रशः। शैलास्तेषाम् नितम्बप्रभवा नदा नद्यश्च सन्ति सङ्ख्याताः। एतासामपो भारत्यः प्रजानामभिरेव पुनन्तीनामात्मना चोपस्पृशन्ति। चन्द्रवसा ताम्रपर्णी अवटोदाकृतमाला वैहायसी कावेरी वेणी पयस्विनी शर्करावर्ता तुङ्गभद्रा कृष्णा वेण्या भीमरथी गोदावरी निर्विन्ध्या पयोष्णी तापी रेवा सुरसा नर्मदा चर्मणवती सिन्धुरन्धः। शोणश्च नदौ महानदी वेदस्मृतिर्षिकुल्या त्रिसामा कौशिकी मन्दाकिनी यमुना सरस्वती दृषद्वती गोमती सरयूरोधस्वती सप्तवती सुषोमा शतद्रूश्चन्द्रभागा मरुद्वृधा वितस्ता असिक्नी विश्वेति महानद्यः। अस्मिन्नेव वर्षे पुरुषैर्लब्धजन्मभिः शुक्ललोहितकृष्णवर्णेन स्वारब्धेन कर्मणा दिव्यमानुषनारकगतयो भव्यात्मन अनुपूर्व्येण सर्वाह्येव सर्वेषाम् विधीयन्ते यथा वर्णविधानमपवर्गश्चापि भवति। योऽसौ भगवति सर्वभूतात्मन्यनात्म्ये निरुक्ते निलयने परमात्मनि वासुदेवे नन्यनिमित्तभक्तियोगलक्षणो नानागतिनिमित्ता विद्याग्रन्थिरन्धनद्वारेण यदा हि महापुरुषपुरुषप्रसङ्गः। एतदेव हि देवा गायन्ति, अहो अमीषाम् किमकारिशोभनम् प्रसन्न येषाम् स्विदुतः स्वयम् हरिः। यैर्जन्मलब्धम् जिषु भारताजिरे मुकुन्दसेवौ पैकम् स्पृहाहिनः। किं दुष्करैर्न कृतुभिस्तपोव्रतैर्दानादिभिर्वाद्युजयेन फल्गुना न यत्र नारायणपादपङ्कजस्मृतिप्रमुष्टातिशयेन्द्रियोत्सवात् कल्पायुषां स्थानजयात् पुनर्भवात् क्षणायुषां भारतभुजयो वरम् क्षणेन मर्त्येन कृतं मनस्विनः सन्न्यस्य संयान्त्यभयं पदं हरेः न यत्र वैकुण्ठकथासुधापगा न साधवो भागवतास्तदाश्रयाः न यत्र यज्ञेशमखामहोत्सवः सुरेशलोकोऽपि न वै स सेव्यताम् प्राप्तान् नृजातिं त्विह ये च जन्तवो ज्ञानक्रिया द्रव्यकलापसंभृताम् न वै यतेरन्न पुनर्भवायते भूयो वनौका इव यान्ति बन्धनम् यै श्रद्धया बर्हिषि भागसो हविर्निरुक्तमिष्टम् विधिमन्त्रवस्तुतः एकः पृथङ्नामभि राहुतो मुदा गृह्णाति पूर्णा स्वयमाशिषाम् प्रभुः सत्यम् दिशत्यर्थितमर्थितो नृणाम् नैवार्थतो यत्पुनरर्थितायतः स्वयम् विधत्ते भजतामनिच्छतामिच्छापि धानम् निजपादपल्लवम् यद्यत्र न स्वर्गसुखावशेषितम् स्विष्टस्य सूक्तस्य कृतस्य शोभनम् तेनाजनाभे स्मृतिमज्जन्मनः स्यात् वर्षे हरिर्यद्भजताम् शन्तनोति श्रीशुक उवाच जम्बुद्वीपस्य च राजन्नुपद्वीपानष्टौ हैक उपदिशन्ति सगरात्मजैरस्मान् वेषण इमाम् महीम् परितो निखनद्भिरुपकल्पितान् तद्यथा स्वर्णप्रस्थश्चन्द्रशुक्लावर्तनो रमणको मन्दरहरिणः पाञ्चजन्यः सिंहलो लङ्केति एवम् तव भारतोत्तमजम्बूद्वीपवर्षविभागो यथोपदेशमुपवर्णित इति ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चमस्कन्दे जम्बूद्वीपवर्णनम् नामैकोनविंशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।